श्री गुरुभ्यो नमः हरिः ॐ। अरुणकमल संस्था तद्रज पुञ्जवर्णा करकमलधृतेष्ठा भीतियुग्माम्बुजाता मणिमकुटविचित्रालङ्कृते पद्ममाला भवतु भुवनमाता सन्ततं श्रीः श्रियै नमः। ॐ लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुरां श्रीमन्मन्दकटाक्षलब्धविभवद् ब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्द प्रियां। ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्रीमहालक्ष्मीदेव्यै नमः। ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चै स्मृता मतिमतीव शुभां ददासि। ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजां चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो महावः दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता। ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्रीमहालक्ष्मीदेव्यै नमः। ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि तां आवहजातवेदो लक्ष्मीमनपगामिनीं यस्यां हिरण्यं विन्देयं कामश्वं पुरुषानहम् दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता। ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्रीमहालक्ष्मीदेव्यै नमः। ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि अश्वपूर्वां रथमज्जां हस्तिनाद प्रबोधिनीं श्रियं देवीमुपक्वये श्रीर्मा देवीर्जुषतां दारिद्र्यदुःखभयहारिणि का वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता। ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्री महालक्ष्मी देव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि कांसोऽस्मितां हिरण्य प्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीं पद्मे स्थितां पद्मवर्णान्ता विहोपक्वये श्रियम् दारिद्र्यदुःखभयहारिणिका वदन्या सर्वोपकारकरणाय सदाद्रचित्ता ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्री महालक्ष्मी देव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् तां पद्मिनीमीं शरणमहं प्रपद्ये लक्ष्मीर्मे नश्यतां त्वां वृणे दारिद्र्यदुःखभयहारिणिका वदन्या सर्वोपकारकरणाय सदाद्रचित्ता ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्री महालक्ष्मी देव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभां ददासि आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोधबिल्वः तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः दारिद्र्यदुःखभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्री महालक्ष्मी देव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभां ददासि उपैतु मां देवसख कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिं ददातु मे दारिद्र्यदुःखभयहारिणिका वदन्या सर्वोपकारकरणाय सदाद्रचित्ता ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्रीमहालक्ष्मीदेव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि क्षुत्पिपासा मलाञ्ज्येष्ठा मलक्ष्मी नाशयाम्यहम् अभूतिमसमृद्धिञ्च सर्वा निर्णुद मे गृहात् दारिद्र्य दुःख भयहारिणि कात्वदन्या सर्वोपकारकरणाय सदाद्रचित्ता ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्रीमहालक्ष्मी देव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि गन्धद्वारा दुराधर्षां नित्यपुष्टा करीषिणी ईश्वरीकुं सर्वभूतानां तामिहोपक्वये श्रियम् दारिद्र्यदुःखभयहारिणि कात्वदन्या सर्वोपकारकरणाय सदाद्रचित्ता ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्रीमहालक्ष्मीदेव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि मनसः काममाकूतिं वाच सत्यमसीमहि पशूनां रूपमन्नस्य मयि श्रीश्रयतां यशः दारिद्र्यदुःखभयहारिणि कात्वदन्या सर्वोपकारकरणाय सदाद्रचित्ता ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्रीमहालक्ष्मीदेव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि कर्दमेन प्रजाभूता मयि सम्भव कर्दमा श्रियं वासय मे कुले मातरं पद्ममालिनी दारिद्र्यदुःखभयहारिणि कात्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्रीमहालक्ष्मीदेव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि आपस्रजन्तु स्निग्धानि चिक्लीतवसमे गृहे निच देवीं मातरं श्रियं वासय मे कुले दारिद्र्यदुःखभयहारिणिका त्वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्रीमहालक्ष्मीदेव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीं चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो महावः दारिद्र्यदुःखभयहारिणिका वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्रीमहालक्ष्मीदेव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि आर्द्रां यक्करिणीं यष्टिं सुवर्णां हेममालिनीं सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो महावः दारिद्र्यदुःखभयहारिणिका वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्रीमहालक्ष्मीदेव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि तां महावहजातवेदो लक्ष्मीमलपगामिनीं यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वविन्देयं पुरुषानहम् दारिद्र्यदुःखभयहारिणिका वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद श्रीं ह्रीं श्रीं ॐ श्रीमहालक्ष्मीदेव्यै नमः ॐ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वश्चैः स्मृता मतिमतीव शुभान् ददासि यस्सुचि प्रयतो भूत्वा जुहुयादाज्यमन्वहम् श्रिय पञ्चदशच्च श्रीकामः सततं जपेत् दारिद्र्यदुःखभयहारिणिका वदन्या सर्वोपकारकरणाय सदार्द्रचित्ता ॐ महादेव्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मी प्रचोदयात्। ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद। श्रीं ह्रीं श्रीं ॐ श्री महालक्ष्मी देव्यै नमः। ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद। श्रीं ह्रीं श्रीं ॐ श्री महालक्ष्मी देव्यै नमः। ॐ श्रीं ह्रीं श्रीं कमले कमलालये प्रसीद प्रसीद। श्रीं ह्रीं श्रीं ॐ श्री महालक्ष्मी देव्यै नमः। ॐ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधके शरण्ये त्र्यम्बके देवी नारायणी नमोस्तुते। नारायणी नमोस्तुते। करुणामयी नमोस्तुते। ॐ शान्ति शान्ति शान्तिः।